यमैच्छा ममनसासो ओजमागाद्यज्ञस्य विद्वान्मकरुणस्य कित्वान् सरोजक्षद्देवता दाजीयान्निगिरत्सदन्तरः पूर्वो अस्मत् अराधिगोता निषदायजीयानभिप्रजाम् सुधीता निरीक्षत् यजामहियज्ञयाङ्ग्रन्थदेवाङ्गीरामहायीर्याङ्गाज्येन साध्वीमगद्देववीतिम् न अद्य यज्ञस्य जिह्वामविदामगुह्याम् सहाजुरागासुरभिर्वसा नो भद्रामगद्देवहूतिम् नो अद्य तदद्यमातः प्रथमम् मधीयेनासूरा अभिदेवा असाम ऊर्जादबुदयज्ञयासः पञ्च जनामम होत्रम् जूषध्वम् पञ्चजनामम होत्रम् जूषन्ताम् गोदाताबुदये यज्ञयासः पृथिवी नः पार्थिवात्मा त्वम् रसोऽन्तरिक्षम् दिव्यात्मा त्वस्मान् अनन्तम् तन्वन्रजसो भानुमन्विहिज्योतिष्मसो रक्षधिया कृतान् अनन्तनम् वा यदजो गो वामपोमनभ्रवजनजाते व्यञ्जनम् अक्षागहो न ह्यतनोदसोऽम् ज्यायिष्क्रीडध्वम् रसनावोतपिम् अष्टावन्धुरम् वहताभितोरसं येन देवासो अनयन्नभिप्रियम् अस्मन्वतीरीयते संरभध्वमुत्तिष्ठत प्रदारता सखायः अत्राजरामये असन्नदेवा शिवान् भजमुत्तरे माभिवाजाने ष्टा मायावे तपसामवस्तमो बिभ्रत्पात्रा देवपानाः हिसन्दमा शिशीते नूनम् परसं स्वायसं येन वृश्चादेतसो ब्रह्मनस्पतिः सदो नूनम् कवयस्सं श्रीसीदमासीभिर्याभिरमृताः यदक्षस विद्वांसः पदा गुह्यानि कर्तरयेन देवासो अमृतत्ववानसुः गर्भेयो रामदधर्मत्समारण्यपीच्छेन मनसोदजिह्वया स विश्वाहा सुमना योग्याभिशासनिर्मनते कारयिज्जितिम्